एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् महालेखा परीक्षकेण गतार्थिक वर्षस्य वार्षिकम् प्रतिवेदनम् प्रस्तुतमस्ति। शीतलनिवासवर्तिनी राष्ट्रपति भवने ह्यः आयोजिते कार्यक्रमे राष्ट्रपतेः समक्षम् महालेखा परीक्षकेण तोयम् राय इत्यनेन प्रतिवेदनम् प्रस्तुतम् वर्तते। तदवसरे राष्ट्रपतिः पौडेलः आर्थिक सुशासनस्य स्थापनाय वित्तीयोत्तरदायित्वाय च सार्वजनिक निकायानाम् पदाधिकारिभिः इतोऽपि आधिक्येन उत्तरदायित्ववद्भिः कार्यम् करणीयम् इत्युक्तवान् आसीत्। राष्ट्रपतिः पौडेलः सर्वकारीय व्यवसाये प्रत्येकम् वर्षे अनियमितरूपेण विहितस्य व्ययस्य विवरणस्य वर्धनम् सुशासनस्य कृते समाह्वयपूर्णा अवस्थास्तीति अगदत्। राष्ट्रपतिः पौडेलः आर्थिकम् सुशासनम् वित्तीयोत्तरदायित्वम् च स्थापयितुम् महालेखा परीक्षकेण आगामि दिनेषु इतोऽपि सशक्त भूमिका निर्वोढव्येति बलम् प्रादात्। सर्वकारीयम् अनियमितरूपेण विहितस्य व्ययस्य विवरणम् गतार्थिक वर्षे 91,59,79,00,000 च रूप्यकाणि प्राप्तानि सन्तीति महालेखा परीक्षक कार्यालयेन ज्ञापितम् वर्तते। सर्वकार्यम् अनियमितरूपेण विहितस्य व्ययस्य विवरणम् पूर्वार्थिक वर्षापेक्षया गतार्थिक वर्षे 0.45% वर्धितमस्ति। ह्यः सार्वजनीकृतस्य महालेखा परीक्षकस्य 62 प्रतिवेदनस्य अनुसारेण सर्वकारीय कार्यालयानाम् संघटित संस्थानाम् अन्यासाम् संस्थानाम् समितिनाम् प्रदेशानाम् स्थानीय स्तराणाम् च अनियमितरूपेण कृतस्य व्ययस्य विवरणम् 10,84,00,000 च रूप्यकाणि अतिक्रान्तानि वर्तन्ते। प्रतिनिधिसभायाः उपवेशे आगामिनः आर्थिक वर्षस्य कृते प्रस्तावितस्य विनियोजन विधेयकस्य सिद्धान्तान् प्राथमिकताम् चाश्रित्य विमृष्टमस्ति। ह्यस्तने विमर्शने अर्जुन नरसिंह केसी, पदम गिरी, जनार्दन शर्मा, डा चन्दा कार्की, दीपक बहादुर सिंह, राजेन्द्र पाण्डे, रंजु कुमारी झा, डा सीके राउत, गंगाराम चौधरी, राजेन्द्र केसी, अच्युत प्रसाद मैनाली चेत्यादिभिः सांसदैः विनियोजन विधेयकस्य सिद्धान्तानाम् प्राथमिकतायाश्च विषये स्वीय धारणा व्यक्तासेत। तत्पूर्वम् प्रतिनिधिसभाया ह्यस्तनोपवेशस्य आकस्मिक समये एमाले दलस्य मुख्य सचेतक पदीयो महेश वर्तौला, साउदी अरबदेशे शतचतुष्टयम् 69 नेपालीनाम् कार्यरतावस्थायाः संस्थानस्य पिधानस्य पश्चात् तत्र असहायावस्थाम् प्राप्तान् नेपाली श्रमिकान् उद्धृत्य सकुशलम् नेपालम् आनेतुम् अयाचत। सांसद वर्तौला कार्यरत संस्थानस्य पिधानस्य पश्चात् शतद्वयेन 27 च नेपाली श्रमिकैः स्वदेशम् प्रत्यागन्तुम् दूतावासे निवेदनम् प्रस्तुतमस्ति। तेषाम् भोजने आवासादिषु च समस्या च दृष्टा वर्तते इत्यतः तत्कालम् नेपालम् प्रत्यानेतुम् सर्वकारम् अन्वरुणत। एवमेव उपवेशस्य शून्यसमये सांसदाः सिन्धुपाल्चोक, रामेच्छाप, काभ्रेपलाञ्चोक प्रभृतिषु वर्षायामज विपदः संकटे विद्यमानेषु जनपदेषु वर्षाकालस्य प्रारम्भात् पूर्वमेव उचित व्यवस्थापनस्य कृते पूर्वकार्याणि विधातुम् सर्वकारस्य ध्यानम् आकर्षयन् प्रतिनिधिसभायाः उपवेश्य आगामिनः आर्थिक वर्षस्य कृते निर्धारितस्य विनियोजन विधेयकस्य सिद्धान्तान् प्राथमिकताम् च आधृत्य सांसदानाम् धारणायाः उपस्थापनस्य क्रम इदानीमपि सञ्चलन् वर्तते। प्रतिनिधिसभायाः अपरोपवेश अद्य पूर्वाह्नस्य 11 पुनर्वसति। अत्रान्तरे भूमि सम्बद्धान् कांश्चित् नेपालादि नियमान् संशोधयितुम् निर्मितम् एतद् विक्रमवर्षीयम् विधेयकम् प्रतिनिधिसभायाम् प्रस्तुतमस्ति। प्रतिनिधिसभाया ह्यस्तनोपवेशे भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी विधेयकमिदम् प्रास्तौत। सर्वकारस्य परामर्शनेन विधेयकमिदम् अध्यादेशस्य रूपेण राष्ट्रपतिना रामचन्द्र पौडेलेन गत माघ मासस्य द्वितीय दिवसे क्रियान्वितमासीत्। सर्वकारेण क्रियान्वितैः अन्यैः अध्यादेशैः सह अध्यादेशोऽयम् सर्वकारेण माघ मासस्य 18 दिवसे संघीय संसत् सचिवालये पञ्जीकारितः पञ्जीकारितः आसीत्। तैः अध्यादेशैः एतस्य अध्यादेशस्य अग्रेसारणस्य विषये सत्तारूढेषु दलेषु सहमतेर धरणस्य अभावात् कार्यमिदम् अवरुद्धमासीत्। सर्वकारेण तदा विधेयकमिदम् नियमित प्रक्रियातः अग्रेसारयिष्यते इत्युक्तम् च आसीत्। राष्ट्रियसभायै ह्यस्तनोपवेश्य आगामिनः आर्थिकवर्षस्य विनियोजन विधेयकस्य सिद्धान्तान् प्राथमिकताम् च आधृत्य विमर्शनम् सम्पन्नमस्ति। उपवेशे विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः वित्तीयमनुशासनम् जनतायाः आकांक्षाम् च केन्द्रे संस्थाप्य आगामिनः आर्थिकवर्षस्य आयव्ययस्य प्राथमिकताः निर्धारयिष्यन्ते इति अगदत्। अर्थमन्त्री पौडेलः आर्थिकानुशासनम् संस्थाप्य निर्धारिते समये एव देशम् सम्पत् शुद्धीकरण सम्बद्धायाः कलङ्कसूचेः निष्कासयितुम् आयव्ययकम् केन्द्रितम् भविष्यतीति अवासत। तत्पूर्वम् उपवेश्य आगामिनः आर्थिकवर्षस्य कृते आयव्ययकस्य सिद्धान्तान् प्राथमिकताम् च आधृत्य विहितस्य विमर्शनस्य क्रमे सांसदाः देशस्य सन्तुलित विकासाय संघ प्रदेश स्थानीय स्तराणाम् सर्वकार्येषु समन्वयम् सहकार्यम् च विधाय आयव्ययकमानेतव्यम् इत्यत्र बलम् दत्तवन्तः। उपवेशेन संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरूङ इत्यनेन 79 विक्रम वर्षीयम् सांविधानिक परिषद कार्यकर्तव्याधिकार कार्यविधि सम्बद्धम् प्रथम संशोधन विधेयकम् प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेषणीयम् इति निगद्य प्रस्तुत प्रस्ताव सर्वसम्मत स्वीकृतोऽस्ति। राष्ट्रियसभायाः अपरोपवेश ज्येष्ठमासस्य पञ्चमे दिवसे दिवा सपादैकवादने वस्ता। निवेश समितेः उपवेशेन परियोजनानाम् प्राथमिकीकरणम् विधाय कार्यसूचीम् अद्यावधिकीम् कृत्वा तस्याः क्रियान्वयनार्थम् निर्णीतमस्ति। सिंह प्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये प्रधानमन्त्रिणः केपी शर्मोलिनः अध्यक्षतायाम् इह उपविष्टेन समितेः द्वाषष्टितमेन उपवेशेन 81 वैक्रमाब्दस्य वैशाख मासस्य सम्पन्नस्य निवेश सम्मेलनस्य क्रमे निवेशम् कर्तुम् परियोजनानाम् सूचीम् निर्माय समितेः समक्षम् प्रस्तोतुम् च उपप्रधानार्थमन्त्रिणः विष्णुप्रसाद पौडेलस्य संयोजकत्वे सार्वजनिक नैज संयुक्त परियोजना प्राथमिकीकरण समिति संघटितास्ति। एवमेव उपवेशेन सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाणामनुसारेण आयव्ययके निवेश समित्या सह सम्बद्धान् विभिन्नान् विषयान् समावेष्टुम् सर्वकारस्य समक्षम् परामृष्टम् वर्तते। प्रधानमन्त्री केपी शर्मा ओली आवासीयतर नेपाली संघम् मर्यादितम् एकताबद्धम् च कृत्वा अग्रे वर्धयितुम् बलम् ददाति। संघेन ह्यः काष्ठमण्डपे आयोजितम् एनआरएनए ग्लोबल कन्क्लेव नामकम् संघस्य वैश्विक मञ्चम् समुद्घाटयन् प्रधानमन्त्री ओली संकीर्ण भावनाम् त्यक्त्वा एकतापूर्वकम् अग्रे वर्धितुम् अन्वरुणात। प्रधानमन्त्री ओली आवासीयतर नेपाली संघस्य आस्थायाः आधारेण विभक्तेः कारणेन अस्य उद्देश्यम् न पूरयिष्यते इत्यत्र सावधानताम् अवलम्बितुमपि अन्वरुणत। तदवसरे प्रधानमन्त्री ओली कतिपयानाम् सीमित व्यक्तीनाम् हितम् विचार्य संघस्य विधानस्य परिवर्तनस्य प्रवृत्त्या संस्थायाम् समस्या सम्भवतीत्यतः विवेकम् तर्कम् चाधृत्य सम्पूर्णावासीयेतर नेपालीनाम् हिताय कार्यम् कर्तुम् संघम् अन्वरुणत। उपराष्ट्रपते रामसाय प्रसाद यादव नागरिकेभ्य गुणस्तरीय स्वास्थ्य सेवाया प्रदानाय बलम् ददाति। बारा जनपदस्य कलैयास्थाने निर्मितस्य प्रादेशिक चिकित्सालयस्य रक्त संग्रहालय भवनस्य उद्घाटनम् विदधानः उपराष्ट्रपति यादव सर्वसुलभ रूपेण गुणस्तरीय सेवाया प्रवाय कथंविदमपि दौर्बल्यम् न कर्तुम् चिकित्सकान् निरदिशत् इति समाचाराः।